सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः अस्तु भगिनि
आं भगिनि शुक्लाम्बरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा वेदिषावहै ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः हरिः ॐ
उत्तमं भगिनि
धन्यवादः भगिनि
आम् एतत् अपि करोति वा
आं भगिनि ध्येयमन्त्रम् पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्
धन्यवादः भगिनि अद्यतन सुभाषितं बहु सुलभः बहु सुलभं सुभाषितं बहु सुलभम् अस्ति अस्तु का पठति श्रीनिवासमहोदय पठति वा धन्यवादः
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणं श्रोत्रस्य भूषणं शास्त्र भूषणैः किं प्रयोजनम्
अर्थमपि पठतु
हस्तस्य भूषणं दानं कण्ठस्य भूषणं सत्यवचनं कर्णस्य भूषणं शास्त्रश्रवणं यदि एतानि भूषणानि सन्ति तर्हि अन्येषां अन्येषां भूषणानां का आवश्यकता
अस्तु
भगिनी
सो इट् इस् कमिङ्ग् इन् दट् क्रमं भगिनि सो वी हाव् 31 फार् ईच् डे वन् फार् ईच् डे लैक् दट् So it just comes in order. So I'm just going in order. Astu. So agre gachamaha kimartam itikte vayam janima. So atra katina padani iti kimapi nasti. Shrotraha itikte karunaha. Tavadeva. Bhushanam itikte abharanam. Astu. Astu. Geetam prati gachamaha. कोऽपि गातुम् इच्छति वा न मिलित्वा गायामः वा प्रवहतु नित्यं संस्कृतगङ्गा प्रवहतु
सनातन धर्म वृद्धये
तदस्तमस्मज्जीवन पुष्पं समर्पयामो निज कार्ये प्रवहतु नित्यं संस्कृत गङ्गा
वयं मिलामः प्रतिसप्ताहं ग्रामे नगरे कार्यस्थाने पठन पाठने व्यापृता वयं वर्धयामः सङ्घटनम्
पठन पाठने व्यापृतायहतु
नित्यं संस्कृत गङ्गा स्वाध्यायेन समेधयामहे परम्परां निज विज्ञानम् हृदय पङ्कजं विकासयामः संस्कृत पाठन यज्ञेन
हृदय पङ्कजं विकासयामः संस्कृत पाठन यज्ञेन
प्रवहतु नित्यं संस्कृत गङ्गा
प्रवहतु नित्यं संस्कृत गङ्गा
विवेकवाणी गुञ्जतु हृदये सत्यभाषणं सहज जीवनम्
विवेकवाणी गुञ्जतु हृदये सत्यभाषणं सहज जीवनम्
अविरत चलनं सरल जीवनं कार्य साधकं भवतु सदा
अविरत चलनं सरल जीवनं कार्य साधकं भवतु सदा
प्रवहतु नित्यं संस्कृत गङ्गा सत्य सनातन धर्म वृद्धये
प्रवहतु प्रवहतु नित्यं संस्कृत गङ्गा सत्य सनातन धर्म वृद्धये
तदर्थमस्मज्जीवन पुष्पं समर्पयामो निज कार्ये प्रवहतु नित्यं संस्कृत गङ्गा
प्रवहतु संस्कृत गङ्गा
उत्तम अस्तु अग्रे अस्ति अस्माकं कथा कथा अस्ति अस्तु अम्ब आरम्भं करोति वा
कस्मिंश्चित् अरण्ये कञ्चन महावृक्षाः आसीत् तत्र सिन्धुकः नाम पक्षी वासं करोति स्म तस्य पुरीषे स्वर्णम् उत्पद्यते स्म.
उत्पद्यते स्म. सो अत्र मूर्खं मूर्खमण्डलं, मूर्ख इत्युक्ते बुद्धिः नास्ति, सः एव मूर्खः. परन्तु बुद्धिः अस्ति परन्तु न चिन्तयति, तत्रापि मूर्खः एव. मण्डलम् इति वदामः चेत् प्रदेशं, प्रदेशे कस्यापि बुद्धिः नास्ति इति. अस्तु, कुत्र महावृक्षः आसीत्?
कश्चन अरण्ये.
अरण्ये, अरण्ये, एकस्मिन् अरण्ये महावृक्षः आसीत्. तत्र कः वासं करोति?
चिन्तुकः नाम पक्षी.
पक्षी वासं करोति. पक्षी इति पक्षिन् मूलपदमस्ति. पक्षिन् योगी इति वदामः खलु, स्वामी इति वदामः, परन्तु मूलपदं स्वामिन् पक्षिन्. सो अत्र पक्षी इति पुल्लिङ्गपदं, नकारान्त पुल्लिङ्गपदम्, ईकारान्तपदं न, नकारान्त विद्यार्थी एतादृशपदम्. अपि च नाम अपि नपुंसकलिङ्गपदम्, अतः एव नाम किम् इति पृच्छामः. नामन् नकारान्तपदं, नाम इति अस्ति. पक्षी वासं करोति. तस्य पुरीषे, पुरीषे इत्युक्ते एतत् एतः एषः एव पुरीषे. पुरीषे इत्युक्ते खादित्वा बहिः आगच्छति खलु. पुरीषे स्वर्णं, स्वर्णम् आगच्छति. उत् उत् पुरीषे स्वर्णम् आगच्छति. आम्, पुरीषे स्वर्णम् बहु विशेष पक्षि, बहु विशेषपक्षि. अस्तु, जयश्रीड् आम्. जयश्री भगिनी अग्रे.
आं भगिनि, एकदा कश्चन व्याधः तत्र तत् अरण्यं गतवान्. तदा पक्षिणा तस्य पुरतः एव पुरीषेत् सर्जनं कृतम्. पुरीषे स्थितं सुवर्णं दृष्टवतः व्याधस्य आश्चर्यं गतम्.
जातम्
सः चिन्तवान्, जन्मनि एतवत्पर्यन्तम् अहम् एतादृशं विचित्रपक्षिणां पक्षिणं न दृष्टवान्. अहो, एतस्य पुरीषे सुवर्णम् उत्पद्यते इति.
उत्पद्यते इति. अत्र पुरीषोत् सर्जनं, पुरीष उत्सर्जनम्, आ ऊ योगे ओ ओ भवति गुणसन्धिः. अग्रे पठामः सर्वं. पुरीषो पुरीष उत्सर्जन, समस्तपदमस्ति. समस्तपदमस्ति चेत् अत्र सन्धि आवश्यकम्. अस्तु,
क्षम्यतां भगिनी, ऐ मिस्ड् द मीनिङ्ग् आफ् पुरीष.
पुरीष इत्युक्ते पक्षी खादति अनन्तरं बहिः आगच्छति खलु. ड्रापिङ्ग् पूप् इति वदामः तादृशं.
भगिनी, दिस् ऐ थाट् पुरुषोत्सर्जनम्. ऐ थाट् इट् इस् अ सन्धि आफ् पुरुषः प्लस् विसर्जनम्.
उत्सर्जनम्.
ओके, पुरुषः उत्सर्जनम्.
आ योगे ऊ एव ओ ओ भवति. उदाहरणतः विष्णु अस्ति चेत् विष्णोः इति वदामः खलु. ऊ अस्ति चेत् ओ ओ भवति. ई अस्ति चेत् ए ए भवति. अत्र पुरुष
पुरुषो वा पुरुषो
पुरीषे पुरीषे पुरीश सो अत्र पुरीशे अस्ति खलु तस्य पुरीशे सप्तमी विभक्ति अत्र अत्र समस्तपदं समासमिति अस्ति चेत् मूलरूपमेव तिष्ठति पुरीष उत्सर्जनं कृतम् इति पुरीष उत्सर्जनं कृतं सो अत्र किम् अभवत् व्याधः तत् अरण्यं गतवान् तस्मिन् समये पक्षिणा पक्षिणा इति विभक्तिका अत्र पक्षिणा
तृतीया विभक्ति
तृतीया पक्षिणा हरिणा गुरुणा पक्षिणा तस्य पुरतः एव पुरीषोत्सर्जनं कृतवान् उत्सर्जनं कृतवान् इत्युक्ते तस्मिन् समये एव पक्षी ड्रापिङ्ग् कृतम् इति पुरीषे स्थितं सुवर्णं दृष्टवतः सो अत्र वयं दृष्टवत् इति मूलपदं दृष्टवत् इति भवत् शब्दः इव भवत् शब्दस्य षष्टिविभक्ति रूपं किं भवत् शब्दस्य
भवतः
सो अत्र अपि दृष्टवत् इति भवत् शब्दः इव दृष्टवत् सो अतः दृष्टवतः व्याधस्य इत्युक्ते यः वा यः व्याधः पश्यति तस्य इति दृष्टवतः व्याधस्य आश्चर्यं जातम् इत्युक्ते आगतम् जातं सः चिन्तितवान् जन्म अपि जन्मन् नकारान्तपदम् लैक् नामन् इव नकारान्तपदं जन्मनि इति सप्तमीविभक्तिरूपं जन्मनि इन् दिस् जन्म लैक् दट् जन्मनि एतावत्पर्यन्तम् इत्युक्ते एतस्मिन् क्षणपर्यन्तम् एतावत्पर्यन्तम् अहम् एतादृशं विचित्रपक्षिणं न दृष्टवान् पक्षिणम् इति द्वितीयाविभक्तिरूपं भवन्तम् इति वदामः खलु पक्षिणं भवत् भवन्तं पक्षिन् पक्षिणम् एवं भवति एतादृशं विचित्रपक्षिणं न दृष्टवान् अहो एतस्य पुरीषे सुवर्णम् उत्पद्यते इति लता भगिनी अग्रे
आं भगिनि सः जालं प्रसार्य तं पक्षिणं गृहीतवान् पञ्चरे स्थापितवान् च पुनः एतेन पक्षिणा अहं किं करोमि एतादृशः विचित्रः पक्षी महाराजस्य समीपे एव भवेत् सः जालं प्रसार्य तं पक्षिणं गृहीतवान्
जालम् इत्युक्ते
नेट् न
नेट् नेट् जालं प्रसार्य पक्षि
गृहीतवान् हि केप्चर् द पञ्चरे स्थापितवान् च पुट् इट् इन् द केज्
पञ्चरे
स्थापितवान् च एतेन पक्षिणा अहं किं करोमि वाट् डु ऐ डू वित् दिस् बर्ड् एतादृशः विचित्रः पक्षी महाराजस्य समीपे एव भवेत् एतादृशविचित्रपक्षी महाराजस्य समीपे एव भवेत् किं केन् हाव् दिस् कैण्ड् आफ् अ बर्ड्
प्राबब्लि लैक् प्राबब्लि अपि अस्ति अत्र भवेत् इति इट् शुड् इति अर्थे इट् शुड् एतादृशविचित्रपक्षी महाराजस्य समीपे एव भवेत् इट् शुड् इति अर्थे सो अत्र भवेत् इति वदामः चेत् अर्थद्वयम् अस्ति एकमस्ति प्रायशः अन्यत् एकमस्ति एव इति अर्थे भवेत् एव भवति एव इति धन्यवादः भगिनी. सो अत्र महाराजः अस्ति, मन्त्री अस्ति, व्याधः अस्ति, पक्षी अस्ति, पञ्चरे पक्षी अस्ति, विचित्रपक्षी. अस्तु लता भगिनी
अपि पठितवती भगिनी.
क्षम्यतां सन्ध्या भगिनी.
अतः महाराजाय एव एतं पक्षिणम् उपायनीकरोमि इति चिन्तयित्वा सः नगरं गतवान्. महाराजं दृष्ट्वा उक्तवान् च, महाराज, एषः कश्चन विचित्रः पक्षी एतस्य पुरीशे सुवर्णम् उत्पद्यते इति. अग्रे पठामि वा भगिनि?
अर्थं वदति वा किञ्चित्? उपायनी करोमि इत्युक्ते पक्षी एव उपायनम् इव करोमि इति. वदतु भगिनि.
अतः व्याधः चिन्तितवान् एतत् पक्षी महाराजस्य समीपे अहं प्रेषितवान् इति इति चिन्तयित्वा सः नगरम् अगच्छत्. तदनन्तरं महाराजं दृष्टवान्, उक्तवान् च, महाराजः, एषः पक्षी विचित्रपक्षी अस्ति. एतस्य पुरीशे सुवर्णम् उत्पद्यते इति. ऐ कुड्न्ट् फैंड एन इक्विवेलेंट.
आमाम्, सुवर्णम् आगच्छति इति. आगच्छति इति सः उक्तवान्. धन्यवादः भगिनी. अस्तु शारदा भगिनी अग्रे.
महाराजः अतीव सन्तुष्टः. सः सेवकान् उक्तवान्, भोः सेवकाः, एतं पक्षिणं जागरूकतया रक्षन्तु, व्याधाय प्रभूतं पारितोषिकं यच्छन्तु इति. महाराजः बहु सन्तुष्टः अभवत्. सः सेवकान् उक्तवान् पक्षिणं सावधानतया रक्षन्तु इति. व्याधाय बहूनि धनं यच्छन्तु इति अपि उक्तवान्.
बहु धनं यच्छन्तु इति उक्तं. ददातु. धन्यवादः भगिनि. अवगच्छन्ति वा इतोपि पर्यन्तं किम् अभवत् इति?
उपायनीकरोमि अर्थ किम्?
उपायनीकरोमि इत्युक्ते पक्षिणं स्वीकृत्य एषः एव भवतः उपायनं प्रेसेण्ट् इति.
ओ प्रेसेण्ट्, ओके. गिफ्ट्. ओके, सम्यक्. धन्यवाद.
अन्य प्रश्नः अस्ति वा? अस्तु अग्रे सविता भगिनी.
आं भगिनि. तदा मन्त्री महाराजम् उक्तवान्, महाराज, एषः व्याधः असत्यं वदति, कदाचित् वा पक्षिपुरीषे सुवर्णम् उत्पद्यते किम्? एतत् असत्यमेव. व्याधस्य वचने विश्वासः न करणीयः. एतं पक्षिणं पञ्जरतः विमोचयन्तु इति. एकः मन्त्री महाराजस्य मन्त्री उक्तवान्, भो महाराजः, एष व्याधः असत्यं वदति, किमपि पक्षी पक्षिपुरुषे स्वर्णं न उत्पद्यते. व्याधः असत्यं वदति इति मन्त्री उक्तवान्. व्याधस्य वचनं विश्वासं न करणीयम् इति मन्त्री महाराजस्य महाराजे उक्तवान्. तदनन्तरं सः वदति पक्षिणां पञ्जरात् विमोचयन्तु इति. विमोचयन्ति इति वदति मन्त्रिः महाराजस्य वदति.
वदति महाराजं वदति. धन्यवादः भगिनि. अवगच्छन्ति वा सर्वे?
विमोचयन्तु अर्थं किं भगिनि?
विमोचयन्तु इति पञ्जरतः बहिः गमयतु. रिलीस् विमोचनं विमोचनम् इत्युक्ते टु रिलीस् फ्री.
कर्णीयः कः पद
कर्मणि प्रयोगः करणीयः. सो अत्र विश्वासः इति पुल्लिङ्गपदम् अतः करणीयः. व्याधस्य वचने विश्वासः मास्तु. किमर्थम् इत्युक्ते असत्यवाक्यं वदति. एतत् असत्यम् अतः विश्वासः. डु नाट् ट्रस्ट् द वर्ड्स् आफ् व्याधः. व्याधस्य वचने विश्वासः न करणीयः. पञ्चरात् सम्यक् पञ्चमे विभक्ति पञ्चरात् पञ्चरतः. पञ्चर इस् अ मूलपदं पञ्चरम् पञ्चमी विभक्ति. इट्स् नाट् अव्ययं पञ्चमी विभक्ति. इट् शुड् बि नो वि केन् से एद पञ्चरतः अथवा पञ्चरात्. सो अत्र अत्र दे नाट् पञ्चरतः. सम्यक् एव पञ्चरतः विमोचय पञ्चर इस् द मूलपदं पञ्चर. ऐ डोण्ट् अण्डर्स्टाण्ड् योर् क्वश्चन् भगिनी. पञ्चरतः अपि पञ्चमी विभक्ति एव परन्तु विभक्तिरूपम् इति न, परन्तु विभक्ति अर्थं बोधयति. पञ्चरतः इति वदामः चेत् पञ्चरात् इति साक्षात् विभक्तिरूपम्. आम् आम् आमां नवदेहलीतः आगच्छति. आम् सम्यक् धन्यवादः. अस्तु शोभना भगिनी पठति वा?
सेवकाः मन्त्रीवचनानुसारं पञ्जरद्वारम् उद्घाटितवन्तः. पक्षी पञ्जरतः उडीय राजभवनस्य उन्नते द्वारे उपविष्टवान्. तत्र सः पुरुषोत्सर्जनं कृतवान्. तत् पुरुषं सुवर्णमयम् आसीत्. राजादयः आश्चर्येण तत् दृष्टवन्तः. सो सेवकाः मन्त्र्याः वचनानुसारं पक्षीं पञ्जरद्वारम् उद्घाटितवन्तः. तदा पक्षी उन्नतद्वारे उपविष्टवान्। तत्र सः पुरुषोत्सर्जनं कृतवान्। सर्वे राजा, सर्वे जनाः तथा राजा अपि एतत् द्रष्ट राजा आश्चर्येण तत् दृष्टवन्तः।
सम्यक् सम्यक् भगिनि, धन्यवादः। सो अत्र मन्त्रिन् इति नकारान्तपदं, सो अत्र मन्त्रिणः षष्टिविभक्ति मन्त्रिणः इति भवति, एवमेव पक्षिणः एवमेव भवति, परन्तु अर्थं सम्यक् एव, बहु सम्यक्। सो मन्त्री उक्तवान् पञ्चरस्य द्वारम् उद्घाटयतु इति, अतः सेवकाः अपि उद्घाटितवन्तः। पक्षी तेषां पुरतः एव किं कृतवान्? पुरुषोत्सर्जनम्, पुरुषोत्सर्जनं कृतवान्, तत् स्वर्णमयम् अभवत्। ते सर्वे आश्चर्येण दृष्टवन्तः। अस्तु सम्यक्, अस्तु विष्णुमहोदय अग्रे।
आं भगिनि, तदा पक्षी चिन्तयति, मूर्खः, अहं व्याघ्रस्य जाले पतितः, मूर्खव्याघः मां महाराजाय दत्तवान्, सः मूर्खः महाराजः मूर्खस्य मन्त्रिणः वचनानुसारं मां बन्धविमुक्तं कृतवान्, एवं समग्रं जगत् एव मूर्खमण्डलम् इति। तत्पर्यन्तं पक्षी चिन्तयन् व्याघ्र मूर्ख भवत्, मूर्खव्याघ्रः भवति, व्याधः मूर्खः भवति।
प्रथमम् अहं मूर्खः,
अहं मूर्खः, अहं व्याघस्य जाले पतितः, व्याघ अपि मूर्खः अभवत्, तत् सः उपहार महाराजाय, सः मूर्ख महाराजा अपि मूर्खः अभवत्, सः मन्त्रिणा शब्दानुसार मम विमुक्तं कृत। तत्पर्यन्तं पक्षिणा चिन्तयति समग्रजगत् एव मूर्खम् अस्ति।
सम्यक्। सो अतः पक्षी चिन्तयति, प्रथममूर्खः अहं व्याधस्य जाले पतितवान् अथवा पतितः, द्वितीयमूर्खः व्याधः महाराजाय दत्तवान्, तृतीयमूर्खः से मन्त्री, मन्त्रिवचनम् अनुसृत्य सर्वे मूर्खाः अभवन् इति। सो अतः समग्रं जगत्तेव मूर्खमण्डलं, मूर्खमण्डलम् इत्युक्ते द सर्कल् आफ् मूर्खास् इति, मूर्खमण्डलम् अथवा देशः अपि मूर्खदेशः। सो अत्र श्लोकरूपेण अस्ति, पूर्वं तावत् अहं मूर्खः, पूर्वम् इत्युक्ते प्रथमं, तावत् अहं तावत् मूर्खः आसम्, द्वितीयः पाशबन्धकः, पाशबन्धकः इत्युक्ते व्याधः, पाशम् इत्युक्ते रज्जु खलु, इत्युक्ते लैक् स्ट्रिङ्ग् अथवा रज्जुम् उपयुज्य जालं प्रसारयति, व्याधः जालिकः अन्यनाम अस्ति। ततः राजा च मन्त्री च सर्वं हि मूर्खमण्डलं, मूर्खानां प्रदेशः, सर्वत्र मूर्खाः सन्ति इति कथायाः, अवगच्छन्ति वा कथाम्?
आं भगिनि,
अस्तु, इदानीं गीतासोपानं प्रति गच्छामः. अत्र भगिनि ग्रुप् इट् मीन्स् सर्कल्, इट् मीन्स् सोसैटि, इट् मीन्स् प्रदेशः, एव्रिथिङ्ग्.
Bhagini, mandalam also means a period of 40 days, isn't it?
Aamama, tadapi. But here it doesn't mean that.
Yes.
Yeah. So, ataha eva sandarbhanusaram avagachamaha iti. Astu. Patra vayam etat pariyantam kritavantaha kalo. अद्य वयं बहु कठिनम् अस्ति वा नास्ति वा इति पश्यामः. यतोदाहरणं वाक्यानि वदत. भवान् निरीक्षताम्, त्वं निरीक्षस्व, अहं निरीक्षै. एकवारं रूपाणि पश्यामः वा. पुटसङ्ख्या चतुष्पञ्चाशत्. सो अत्र एकवारं वयं रूपाणि पश्यामः. सो अत्र परस्मैपदी एवम् अस्ति लोट्लकाररूपं. पट् धातु, पठतु, पठतां, पठन्तु. कोऽपि वदति वा पट् पट् धातु कथं भवति?
पठतु, तां, पठन्तु.
अग्रे
पठत्वम् ऐ मीन् मध्यम पुरुष. पठति
न न पठ
पठ पठ पठतं
पठ युवां पठतं
पठानि पठाव पठाम
पठाम पठानि पठाव पठाम. अस्तु, अन्य कोऽपि? उमाकृष्णन् भगिनि.
In the previous page, the what was the purpose of that exercise? I didn't understand. Bhavan lokatam, bhavantau loketam.
That is atmane pari dhatu bhagini.
What were we supposed to do in this exercise? I was looking at it last night and I was like, what am I supposed to do here?
So atra va?
Atra. The previous five.
Number five, okay.
Okay, that one was a tvam vada, we can change the pronouns, right?
Purvatana koshtakat kriyapadani chitva vimshatihi vakyani rachayata. So,
what is that? Purvatana
kriyapadani
chitva. We had to choose some verbs from the
previous. उदाहरणार्थं स्मृ धातु स्वीकृत्य स्मरतः इति वदामः चेत् कथं भवति? स्मरतः इति लट्लकाररूपं, स्मरतम् इति लोट्लकाररूपम्. अतः युवाम् अत्र दोषः अस्ति. युवां स्मरतम् इति अत्र लिखन्तु, तावदेव.
No, but this, the pata, avagachata, cha, then they gave all these madhyama purusha and...
So, atra, now they are introducing atmane padi dhatu lotlakaram.
Oh, so we are just supposed to understand this.
Kevalam avagachata, that's it. Patata avagachata.
Okay.
So, atra, युवां यूयं खलु, त्वं युवां यूयं, यूयं पठत, यूयम् अवगच्छत च. केवलं पठतु, केवलम् अवगच्छतु. सो अत्र रूपं कथं भवति लोकतां लोकेतां लोकन्तां प्रथमाविभक्तिरूपम् सो अत्र अत्र सर्वत्र समानरूपं भवति समानरूपं भवति त्वं स्व भवति वीक्षस्व वीक्षेताम् वीक्षद्वम्
दिस् इस् लट्लकार आत्मनेपदि
आत्मनेपदि लोट्लकार भाषस्व भाषेथां भाषध्वं समानं स्व एतां द्वं स्व एतां द्वं परन्तु अत्र क्रीणी आ अस्ति चेत् स्व स्व भवति वीक्षस्व वन्दस्व मोदस्व यतस्व इति परन्तु आ विहाय अन्य वर्णः आगच्छति चेत् क्रीणि एकनिमिषम् अहं श्व श्व आगच्छति क्रीणि श्व अत्र स्व नास्ति श्व एव श्व मूर्धन्य शकारः अस्ति किमर्थम् इत्युक्ते अत्र अ नास्ति सो एतानि विशेषक्रियापदानि क्रीणीष्व क्रीणीता अग्रे समानमेव परन्तु अत्र ई अस्ति क्रीणी जानी अपि समानमेव जानीष्व क्रीणीध्वम् ईध्वम् इति अस्ति भुज् भुज् धातु बहु भिन्न भिन्नरूपं बुङ्क्ष बुङ्क्ष्व भुज् धातु बुङ्क्ष्व इत्युक्ते खादतु इति खाद त्वं खाद युवां भुञ्जातां भिन्नरूपं भुञ्जातां बुङ्क्ष्वम् एतदपि बहु भिन्नभिन्नरूपाणि कृ धातु अपि भिन्न भिन्नरूपं भवति करवै करवावहै करवामहै सेवै सेवावहै सेवामहै अत्र केवलं पठतु अवगच्छतु च एतानि भिन्नरूपाणि
लभते रमते लेपते
कुत्र भगिनि एतत् खलु अत्र
अस्तु
सो सो वी केन् डू इट् अगेन् सो अत्र वयं कृतवन्तः खलु परन्तु पुनः कुर्मः सो अत्र तौ अपि वदामः मध्ये अपि अत्रापि मध्ये त्वं युवां एकवचनं बहुवचनं वयं द्विवचनमपि कुर्मः कथं भवति एताम् इति भवति एताम् वन्दतां वन्देतां वन्दन्तां वन्दस्व कथं भवति महाप्राण वन्देथां ओ अल्पप्राण ओ युवां महाप्राण ओके युवाम् अस्ति चेत् महाप्राण मध्यमपुरुषे महाप्राण प्रथमपुरुषे अल्पप्राण प्रथमपुरुषे अल्पप्राण मध्यमपुरुषे महाप्राण भवति अत्र अत्र पश्यतु भाषेताम् सो अतः वन्दे अहं केवलम् ए इति लिखितवती ओके बिकास् इफ् इट् इस् सहते इट् इस् सहेताम् सहेताम् सहद्वम् इति भवति वन्दै वन्दा वहै वन्दा महै केवलं वहै एव वहै महै महै वन्द् दातु वन्द् अस्तु उमाकृष्णन् भगिनी अभवत् उषा भगिनी करोति वा सहते
भगिनि ऐ डिण्ट् गेट् अ चान्स् भगिनि उमाकृष्णन्
उमाकृष्णन् अस्तु भगिनि उमाकृष्णन् भगिनि करोतु सहते
सहते सह सह सहतां सहेतां सहन्ताम् सहस्व सहेतां सहद्वं सहै सहै सहावहै सहावमहै
सहामहै सम्यक् सम्यक् अवगच्छन्ति खलु पेटर्न् कथम् अस्ति इति अस्तु वीणाबेन् भगिनि
आं भगिनि
सज्जते
सज्जते सज्जतां सज्जन्तां
सज्जतां सज्जेतां सज्जन्तां
सज्जते सज्जेतां सज्जन्तां
सज्जते इति लट्लकार भगिनि त्यजतु लीव् दट् सो वि स्टार्ट् वित् लोट्लकार आत्मनेपदि परिधातु सज्जताम् इति एव सः सज्जताम्
सः सज्जताम् तौ सज्जन्तां
सज्जेतां
तौ सज्जेतां ते सज्जन्ताम्
आम्
त्वं सज्जस्व यूयं सज्जत्वं न क्षम्यतां त्वं सज्जस्व युवां सज्जेथां यूयं सज्जत्वम् अहं सज्जै आवां सज्जावहै वयं सज्जामहै
सम्यक् अहं सज्जै सहै सहै अस्तु उर्मिला भगिनी पुनरेकवारं लिखामः अत्र
सः इति वयं सहतामहे ओर् सहामहे
सहामहे सो अत्र ताम् एताम् अनन्तरम् अन्ताम् रैट् am I correct
what did you put the ekvachan tam
prathama purusha vandatam vandetam vandantam madhyama purusha katam bhavati vandasva vandetam vandantam vandadvam धन्यवादः उत्तमपुरुष सो अत्र आवहै इति भवति परन्तु आवहै आ महै अस्तु अग्रे उर्मिला भगिनि भगिनि
What is the third one you wrote in the first column?
Antam, Vandantam, like that. वन्दतां वन्देतां वन्दन्ताम् वन्दतां वन्देतां वन्दन्ताम् वन्दस्व वन्देथां वन्दध्वम् वन्दै वन्दावहै वन्दामहै. ओके, सो ऐ रोट् देट् एस् अ गैड्. अस्तु, उर्मिला भगिनी,
विच् वन् सूक्ते
लभते?
ओके, लभते, लभेते, लभन्ते.
न, अत्र लभते इति गैड् भगिनि, इस् जस्ट् अ गैड्. सो अत्र लभेताम् न लभतां लभेतां लभन्तां तत्र लभेतां लभन्ताम्. सो वाक्यं वदामः चेत् अर्थं स्पष्टं भवति. उदाहरणं, बालकः पुस्तकं लभताम्, अथवा हे बालक पुस्तकं लभताम् लभतां लभेतां लभन्ताम्, रूपाणि एवम् अस्ति. वदतु, लभतां
लभतां लभेतां लभन्ताम्, लभस्व लभेतां लभद्वम्.
सम्यक्.
लभै लभावहै लभामहै.
लभै लभावहै लभामहै. धन्यवाद भगिनी. उषा भगिनी, रमते.
रमतां रमेतां
रमन्ताम्
देन् रमस्व रमेथाम् right?
आम् सम्यक्.
रमेथाम् एण्ड् रमध्वम् बहुवचनं रमध्वम्
रमध्वम् अग्रे अहम् सम्यक्. अहं रमै.
आवां रमावहै. वयं रमामहै.
रमामहै. अस्तु, प्रथमतः आरम्भं कुर्मः. वेपते, श्रीनिवास महोदय. महोदय अत्र किमपि योजयतु. सः वेपताम्.
सः वेपताम्
तौ
वेपेताम्. ते वेपन्ताम्. युवाम्
त्वम्
अस्तत्वं त्वं वेपस्व. युवां वेपेताम्. यूयं वेपद्वम्. अहं वेपै. आवां वेपावहै. वयं वेपामहै.
वेपामहै. सम्यक्. अस्तु, चम्पा भगिनी.
अहं भगिनि. लज्जते. सः लज्जताम्. तौ लज्जेताम्. ते लज्जन्ताम्. त्वं लज्जस्व. युवां लज्जेथाम्. यूयं लज्जध्वम्. अहं लज्जे. आवां लज्जावहै. वयं लज्जामहै.
अस्तु भगिनि, उत्तम.
धन्यवादः.
धन्यवादः. अस्तु, अम्ब ईक्षते.
ईक्षते. सः ईक्षताम्.
उत्तम.
तौ ईक्षेताम्. ते ईक्षेताम्.
ईक्षन्ताम्.
ईक्षन्ताम्.
त्वम्
ईक्षस्व. त्वम् ईक्षेताम्. यूयम् ईक्षध्वम्. ईक्षध्वम्.
ईक्षध्वम्. सम्यक्.
अहम् ईक्षै. आवाम् ईक्षावहै. ईक्षामहै.
सम्यक्. ईक्षामहै. सम्यक्. अस्तु, अग्रे जयश्री भगिनी. युद्ध मास्तु. चेष्टते वदतु. चेष्टते.
आं भगिनि, सः चेष्टताम्. तौ चेष्टेताम्. ते चेष्टन्ताम्. त्वं चेष्टस्व. युवां चेष्टेताम्. यूयं चेष्टध्वम्. अहं चेष्टै. आवां चेष्टावहै. वयं चेष्टामहै.
सम्यक्. सम्यक् भगिनि. अस्तु, अग्रे लता भगिनी.
भगिनि, सा ऊहताम्. ते ऊहेताम्. ताः ऊहन्ताम्. त्वं ऊहस्व. आवाम् ऊहेताम्. आवां वयं यूयं सारी यूयं ऊहध्वम्.
सम्यक्.
अहम् ऊहै. आवाम् ऊहामहै. वयं वहै. ऊहावहै. वयं ऊहामहै.
सम्यक्. ऊहामहै. सम्यक्. सम्यक् भगिनि. अस्तु, सन्ध्या भगिनी, युध्यते प्रयत्नं करोतु. अहं चिन्तयामि साधारणक्रियापदम् इति. अस्तु
भगिनि, खिद्यते वा युध्यते वा?
युध्यते करोतु, अनन्तरम् अन्य कोऽपि खिद्यते करोति. युध्यते करोतु भगिनि.
सः युध्यताम्. तौ युध्येताम्. ते युध्यन्ताम्. त्वं युध्यस्व. युवां युध्येताम्. यूयं युध्यध्वम्. अहं युध्यै. आवां युध्यावहै. वयं युध्यामहै.
युध्यामहै. सम्यक्. अस्तु, सम्यक्. अग्रे शारदा भगिनी, खिद्यते.
भवान् खिद्यताम्. भवन्तौ खिद्यन्ताम्. भवन्तः
खिद्येताम्. भवान् भवन्तौ भवन्तः. सम्यक्. अस्तु,
त्वं खिद्यस्व. युवां खिद्येताम्. यूयं खिद्यध्वम्. अहं खिद्यै. आवां खिद्यावहै. वयं खिद्यामहै.
सम्यक् भगिनि. सो अत्र यतोदाहरणं वाक्यं वदतु इति अस्ति. सो अत्र निरीक्षते साधारणक्रियापदं. क्षमते, युध्यते. शेते नास्ति. कुरुते नास्ति. सहते, खिद्यते. युङ्क्ते साधारणक्रियापदं नास्ति. भुङ्क्ते साधारण विशेषक्रियापद लभते मोदते भाषते सेवते भूते ब्रूते दत्ते इति साधारणक्रियापदं नास्ति. युध्यते अपि सम्यक् एव सम्यक् एव. सो अत्र भवान् त्वम् अहं केवलं तदेव अस्ति, परन्तु वयं सर्वं कुर्मः.
क्षम्यतां भगिनि,
युध्यते
समानमेव वा अर्थं?
न जानामि भगिनि, अत्र एकनिमिषम् अहं दृष्ट्वा वदामि. अहं चिन्तयामि समानमेव. किमर्थम् इत्युक्ते प्रायः मुद्रणदोषः साधारण एव अहं चिन्तयामि. क्रियापदद्वयं नास्ति इत्येव अहं चिन्तयामि. एकः एव
युध्यते करेक्ट्
युध्यते. एतत् सम्यक् युध्यते
युध्यते. ओके धन्यवादः.
युध्यते मीन्स् युद्धं करोति इति. आत्मनेपदि युध्यते. आम् अस्तु, अत्र पश्यामि अष्टाध्यायी. सन्देहः अस्ति चेत् झटिति पश्यामि. युद्ध युद्ध इति अत्र अस्ति. युध्यते एव, अल्पप्राण नास्ति अत्र.
धन्यवादः भगिनि.
धन्यवादः भगिनि. युध्यतामेव अस्तु. सो अत्र एतत् सम्यक् नास्ति, एतदेव सम्यक् युध्यते इति अस्तु. सो नूतनक्रियापदमस्ति चेत् वयं कुर्मः. शारदा भगिनी अभवत्, सविता भगिनी निरीक्षते सर्वाणि रूपाणि. भवान् निरीक्षताम्. अत्र लिखामि निरीक्षताम् निरीक्ष्येताम् निरीक्षन्ताम्.
भवान् निरीक्षताम् भवान् भवन्तौ निरीक्षेताम् भवान् भवन्तौ भवन्तः निरीक्षन्ताम्.
अस्तु अग्रे
निरीक्षस्व.
त्वं
युवां निरीक्षेतां यूयं निरीक्षध्वम्. अहं निरीक्षै आवां निरीक्ष्यावहै वयं निरीक्ष्यामहे
निरीक्षामहे. सम्यक्. क्षमते अभवत् वा? क्षमते नास्ति. क्षमते का वदति? शोभना भगिनि.
आं भगिनि, सः क्षमतां तौ क्षमेतां ते क्षमतां
क्षमन्तां. सम्यक्.
क्षमन्तां ते क्षमन्तां त्वं क्षमस्व यूयां युवां क्षमतां यूयं क्षमे यूयं क्षमध्वम्.
अत्र क्षमेतां स्व ए क्षमेतां क्षमध्वं सम्
युवां क्षमेतां यूयं क्षमेध्वं
क्षमध्वं क्षमध्वं
क्षमध्वं यूयं क्षमध्वम्. अहं क्षमै आवां क्षमावहै वयं क्षमामहै.
सम्यक्. क्षमामहै अस्तु. युध्यते अभवत्, क्षेते मास्तु, कुरुते मास्तु, सहते अभवत्, खिद्यते अभवत्, युङ्क्ते मास्तु, लभते मोदते कुर्मः. उमाकृष्णन् भगिनि मोदते.
सः मोदतां. तौ मोदे मोदेताम्. एण्ड् ते मोदन्ताम्. त्वं मोदस्व युवां मोदेताम्. यूयं मोदध्वम्.
मोदध्वं सम्यक्.
अहं मोदै. आवां मोदावहै. वयं मोदामहै.
मोदामहै सम्यक् सम्यक् भगिनि. अस्तु उर्मिला उर्मिला भगिनि भाषते.
वन् मिनिट्.
नो प्राब्लम्.
वन् मिनिट्.
आम् आं भगिनि.
अहं वदामि.
वदतु.
सः भासतां. तौ भासेताम्.
अत्र अत्र श अस्ति. भाषे भाष भगिनि.
अस्तु अस्तु. मै फोन् वास् म्यूटेड्. सः भासतां. तौ भासन्तां. ते नो सः ओके पुनः वदामि. सः भासतां. तौ भासेताम्. ते भासन्ताम्.
अत्र अत्र श अस्ति. भाष
भाषताम्.
त्वं
त्वं भाषस्व. युवां भाषे भाषेथां. यूयं भाषध्वम्. अहं भाषा अहं भाषै. आवां भाषावहै. वयं भाषामहै.
भाषामहै. अस्तु उषा भगिनि अन्य किमपि वदति वा? सेवते वयं कृतवन्तः. अन्यपदं वन्द अत्र स्वीकुर्मः. यततां भवती. यततां वदतु.
भवती यततां. भवन् भवत्यौ. भवत्यः यतन्तां.
भवत्यौ यतेतां.
भवत्यौ यतेतां. भवत्यः यतन्तां.
यतन्तां. त्वं
त्वं भवत
न त्वं यतस्व.
त्वं यतत
यतस्व.
यतस्व त्वं यतस्व. युवां यतेतां. यूयं यतध्वम्.
यतध्वम् अस्तु. अहम्
अहं यतैः.
यतै एव. यतै
अहं यतै. आवां यतवावहै.
यतावहै.
यतावहै. वयं यतामहै.
वयं यतामहै. अस्तु वीणाबेन् भगिनि. कामयतां. भवती कामयतां.
भवती कामयतां. भवत्यो कामयतां. भवत्यः कामयन्तां.
त्वं
त्वं त्वं कामय त्वं कामयस्व. युवां कामयेथां. यूयं कामयध्वम्. अहं कामये.
आवां कामयावहै वयं कामयामहै.
सम्यक्. विष्णुमहोदय धन्यवादः. सो अत्र लोकताम् इति अस्ति, अवलोकताम् इति वदतु. भवान् अवलोकताम्,
भवान् अवलोकताम्, भवन्तौ अवलोकेताम्, भवन्तः अवलोकन्ताम्, त्वम् अवलोकस्व, युवाम् अवलोकेथाम्, यूयम् अवलोकत्वम्, अहम् अवलोकै, आवाम् अवलोकावहै, वयं अवलोकामहै.
अवलोकामहै. इदानीं वयं, धन्यवादः महोदय, इदानीं वयं विशेषक्रियापदं पश्यामः. सो अत्र अहम् अष्टाध्यायीतः स्वीकृतवती. सो अत्र शी, शी धातु अस्ति. शेते, शयाते, शेरते. सो एतत् अस्ति लट्लकाररूपं. सो अत्र शेते, शी धातु, शी धातु टु स्लीप्, शयनं करोति. आत्मनेपदी धातु कथमस्ति? लट्लकाररूपं शेते, शयाते, शेरते, बहु भिन्नरूपं. साधारणतया कथं भवति? वन्दते, वन्देते, वन्दन्ते, वन्दसे, वन्देथे, वन्दद्वे, वन्दे, वन्दावहे, वन्दामहे, एवम् एवं भवति. परन्तु अत्र भिन्नरूपं, किञ्चित् कठिनमेव, किञ्चित् कठिनम्. अत्र लोट्लकारमपि भिन्नरूपं. शेताम्, शयाताम्, शेरताम्, नकारः नास्ति तत्र. शेष्व, शयाताम्, शेद्वं, शयै, शयावहै, शयामहै. सो एतत् सङ्ग्रहं कृतवती अहम् अत्र. अहम् आरोपयामि शेते, शयाते, शेरते. सो अत्र शेते स्वीकुर्मः वा? अस्तु, श्रीनिवासमहोदय अत्र.
आं भगिनि,
लट्लकारमपि पठतु, लोट्लकारमपि पठतु.
शेते, शयते, शेरते.
शयाते, शयाते, शेरते.
शेते, शयाते, शेरते. शेतां, शयातां, शेरताम्.
सो लट्लकारः एवमस्ति, लोट्लकारः एवमस्ति. लोट्लकारस्य लक्षणं ताम्, एताम्, अन्ताम्. परन्तु ताम् सम्यक् अस्ति, परन्तु एताम् न याताम् अस्ति, इन्ताम् न रताम् अस्ति. इट् रिसेम्बल्स् अ लिटिल् बिट् but not following the pattern.
Okay.
Ah.
Then madhyam purushe.
Ah.
Sheshe, shayate, shedve.
Ah, astu. Idani vayam lotlakaram eva pashyamah. No chet confusion bhavati. Ah. So atra sheshva. Ah.
Sheshva, shayatam, shedvam.
Shedvam.
Shayai, shayavahai, shayamahai.
This looks same. So, atra punah patatu shetam.
Shetam, shayatam, sheratam. Sheshwa, shayatam, shedvam. Shayai, shayavahai, shayamahai.
Shayamahai. So, atah eva...
Purusham looks broadly okay.
सो अतः एव कठिनम् अस्ति चेत् विभज्य प्रयोगं कुर्मः वयं. शयनं करोमि, लैक् दट्. शयनं करोतु, वयं शयनं कुर्मः, लैक् दट्. वयं शयामहै अथवा शयामहे इति किञ्चित् भिन्नरूपम् अस्ति. अतः स्मरणार्थं सम्यक् सुलभः नास्ति, अतः एव विभज्यप्रयोगः सरलं भवति इति. अस्तु, चम्पा भगिनी, अत्र कृ धातु अस्ति चेत् परस्मैपदी अपि अस्ति, आत्मनेपदी अपि अस्ति. वयं केवलम् आत्मनेपदी एव पश्यामः. चम्पा भगिनी,
कुरुते
न अत्र अत्र एव कुरुतां
कुर्वतां कुर्वतां
कुर्वतां
कुर्वस्व कुर्वथां कुरुध्वं कर्वै कर्वावहै कर्वामहै
कर्वामहै. सो अत्र कुरुतां समानरूपं कुरुतां, परन्तु साधारणतया एताम् अस्ति, अत्र आताम्, अत्रापि आताम् एव, शयाताम् विशेषक्रियापदम् अस्ति चेत् तथा भवति, आताम् कुर्वाताम् कुर्वताम्, नकारः नास्ति. अस्तु, अग्रे भगिनी, कुरुष्व साधारणतया स्व अस्ति, परन्तु अत्र श्व किमर्थम् इत्युक्ते उ अस्ति, अ अस्ति चेत् स्व, नास्ति चेत् श्व भवति. कुरुष्व
कुर्वाथां
कुर्वाथाम् अत्र एथां नास्ति, आथां कुरुध्व समान कुरुध्व
समान
अत्र करवै कुरु नास्ति, करवै करवावहै करवामहै, किञ्चित् भिन्नभिन्न रूपाणि अभ्यासेन एव आगच्छति, मनसि आगच्छति. अस्तु, सो अत्र युज् दातु, युज् इत्युक्ते टु बैन् टु योजनं कुर्मः. अत्र अत्रापि आत्मनेपदी धातु अस्ति, परस्मैपदी धातु अस्ति. इदानीं वयं परस्मैपदी रूपाणि एव पश्यामः. अम्ब पठति वा? युङ्क्तां
युङ्क्तां युञ्जतां
युञ्जतां सम्यक्
युङ्क्तां
युनजामहै युङ्क्तां युञ्जातां युञ्जतां, बहु भिन्न भिन्नरूपाणि. सो अथवा अत्रापि योजनं कुर्मः, योजनं करोतु, योजनं 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 करोतु, एवं वदामः. युङ्क्ष्व युञ्जातां युञ्जध्वम् किं भगिनि? No, I'm going to add it. I want to see how what we need to add. So now I'm figuring out we need to do only the Atmanepadi, because then it gets very confusing. So because we are studying only Atmanepadi, Atmanepadi Rupani Eva Tatra Aropayami.
Is your slide according to the dates of they were presented?
I'm begging.
Okay, so I was looking for your slide here. I don't know which number it is on.
सो अत्र स्लैड्स् इति पश्यामः चेत् ऐ एम् नाट् कनेक्टेड् नौ. ओके
भगिनी, मध्यमपुरुष बहुवचनं युञ्जध्वम् और् युङ्धध्वम्?
युङ्ध्वम्
G or J, Bhagini, because in the other cases it is J, Yungja, Yungjatam, Yungjatam.
Yeah. Yeah, here it is Yungdvam, Yung and then dvam.
It is not ja there, is it?
No, no.
Why is that the exception, right? I mean, ja.
Yeah, I think this is just yung dvam. Here it is yung shva, ing and then ikshva. Yung shva. Here it is yung dvam. Here it is yung tham.
You have not put your slide yet then.
No, it's there, Bhagini. So if you, I didn't put it in the slide, no.
Yeah, that's why I didn't find it.
Oh, that's what you didn't find, okay. So, yunajai, yunajavahai, yunajamahai. Okay, same thing.
Bhagini, what are the two pronouns like again?
Astu. Bhavati yungtam, bhavatyau yunjatam, bhavatyah yunjatam. Tvam yungshva, yuvam yunjatam, yuyam yungdvam. Aham yunajai, avam yunajavahai, vayam yunajamahai.
Dhanyavad
Bhagini. अस्तु अग्रे अस्ति भुज् धातु भुज् इत्युक्ते खाद् खाद् धातु सो अत्र खाद् अपि अस्ति अपि च टु एन्जाय् अपि अस्ति भोगं सो अत्र भुज् भुज् धातु
Can you please put boom and huge in the same screen so that we can see if there are similarities, please? Or is it totally different?
No.
Yuj and Bunj, are they similar or? La?
Yeah, it is similar. So if we look at the Parasmai, so this has both Parasmai and Atmanepadi. Okay. So I'll make it smaller so you can see. Yeah, it is similar, Bhagini.
Okay.
So we have the Parasmai, now we are looking only Atmanepadi Dhatu. So, Yungtam, Bungtam, Yunjatam, Bunjatam. Same.
Yeah.
Okay. And, Prashna Hava?
Nasti Bhagini. I just want, because it says that they are two similar words, yes. That's why.
Bunj and Yuj.
Bhagini, I'm looking for it on Ashtadhyayi. Is Atmanepadi separate?
No, it will be side by side. For example, Bunj, okay? So there are two bhuj. One is to protect, preserve, eat, consume. So this is the bhuj you have to choose. Bhuj.
Okay.
See, on the left side, Parasmai Padam, right side, Atmane Padam. Right side, Bhunte, Bhunjate, Bhunjate. On the left side, Bhunakti.
Oh, okay.
Bhunktaha, Bhunjati.
What was the other Bhuj?
Bhuj. Yuj. And now if you look at Lot Lakara. Bhunktad, Bhunaktu. Sahanav Bhunaktu. Iti asti kalu Bhunaktu. Bhungtam. Bhungtam. Bhungtam is there. Parantu atra the Parasmai Padi Advivachanam is Bhungtam. Lotlakara Atmanepadi Bhungtam. So unless we use it constantly, we are not going to get it. So from here I just copied it there so we don't have to look constantly. Tavatev.
भगिनी कृपया वाट्सप् मध्ये प्रेषयतु
Nischayan, Nischayan. So I will just isolate the Atmanepadi Dhatu Mahodaya, so this way it's not confusing. Atmanepadi Padi Eva Preshayam. Astu. Lata Abhavat Kalo, Sandhya Bhagini.
Bhungtam, Bhunjatam. So that would be Saha Bhungtam, Tam Bhunjatam, Bhunjatam. Tvam Bhungshva Yuvam Bhunjatam Yuyam Bhungdvam.
Bhungdvam.
Aham Bhunajai Avam Bhunajavahai Vayam Bhunajamahai.
Bhunajamahai. Brudhatu is another one which has a lot of forms. Brute, Bruvate, Bruvate. This is Latlakara Rupam. Idanim Vayam Lotlakaram Pashyamaha. Astu, Sharada Bhagini.
Brutam, Bruvatam, Bruvatam. Brushva, Bruvatam, Brudvam. Bravai, Bravavahai, Bravamahai.
Bravamahai. So, Atra, this is also Ubhayapadi Dhatu. It means Atmanepadi api asti, Parasmayipadi api asti. Atmanepadi katam bhavati. Asti. Abruta, abruvatam, abruvata. Bahu binna rupani santi. Asti. Idanim da dhatu api, Atmanepadi api asti, Parasmayipadi api asti. Savita Bhagini. Dattam.
Aam Bhagini.
Aam.
Dattam. Dadatu. Dattam.
No. Atra Pashya. Samyata.
Dattam. Dadatam. Dadatam. Aham Dattam. Sahadattam. Sahatau dadatam. Te dadatam. Swam dattasva. Yuvam dadatam.
Dattasva.
Swam yuvam dadatam. Yuyam dadadvam.
Dadvam. So, atra alpa prana, maha prana, vakara. It was dadvam.
Aham dadai, avam dadavahai, vayam dadamahai.
Dadamahai.
Most easiest is this, Bhagini. Aham avam vayam.
Aham avam vayam. Samyat. So, atra Bahuvaram vayam patamaha chet kinchit manasi tishtati. No chet na tishtati eva. Agre vayam etat kurmaha kurukshetre sainikana mukat. Mukaritani padani etani santi. Tat purvam uchitam kartrupadam yojayata. Astu. Maraya. Iti asti chet rupam kim tvam maraya. So atra aham chintayami atmanepadi parasmaipadi militva asti. Kimatam ityukte tu ma etadisha padani parasmaipadi padipadani. Anya kim? Astu. अस्तु अग्रिमवर्गे पठामः परन्तु अत्र आरम्भं कुर्मः समापयामः वा न वा इति न जानीमः सो भुञ्जयत भुञ्जयत कीदृशरूपम् अस्ति भुञ्जयत भुञ्ज दातुं पश्यामः भुञ्ज अस्ति वा अत्र भुञ्जयत नास्ति अत्र भुञ्जयत
एनिथिङ्ग् एण्डिङ्ग् विथ् आ शुड् बी फ्रम्
आन् अ वर्ड्स् बेसिस् हा नियम् भुञ्जयत सम्यक् अहं कुत्रापि गतवती यूयं भुञ्जयत 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 अस्तु लुण्ठन्तु
लुण्ठन्तु
सो अत्र वयं गृहपाठरूपेण कुर्मः अग्रिमवर्गे आरम्भं कुर्मः अत्र सम्यक्तया पठन्तु आगच्छन्तु च अस्तु इदानीं विरमाम शान्तिमन्त्रम् उक्त्वा समयः अभवत् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ